तृतीय स्कंध अथ नवमोध्याय ब्रह्मोवाच ज्ञातोऽसि मेद्य सुचिरान्ननु देहभाजम् न ज्ञायते भगवतो गतिरित्यवद्यम् नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धम् मायागुणव्यतिकरा जदुरुर्विभासि रूपं जदेतदवबोधरसोदयेन शस्वन्निवृत्ततमसः सदनुग्रहाय आदौ गृहीतमवतारशतैकबीजम् जन्नाभिपद्मभवनादहमाविरासम् नातः परम् परम् जद्भवतः स्वरूपम् आनन्दमात्रमविकल्पमबिद्धवर्चः पश्यामि विश्वसृजमेकमविश्वमात्मन् भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि तद्वा इदम् भुवनमङ्गलमङ्गलाय ध्याने स्मनो दर्शितम् तौपाशकानाम् तस्मै नमो भगवते नुविधेम तुभ्यम् यो नादृतो नरकभाग्भिरसत्प्रसङ्गैः ये तु त्वदीयचरणाम्बुजकोशगन्धम् जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् भक्त्या गृहीतचरणः परया च तेषाम् नापयसिनाथ हृदयाम् बुर्हात्स्वपुंसाम् तावद्भयम् द्रविणगेह सुहृन्निमित्तम् शोकः स्पृहा परिभवो विपुलश्च लोभः तावन्ममेतस्य सदवग्रहयार्तिमूलम् यावन्न तेऽङ्घ्रिमभयम् प्रवृणीतलोकः दैवेन ते हतधियो भवतः प्रसङ्गात् सर्वाशुभोपशमनाद्मुखेन्द्रियाये कुर्वन्ति कामसुखलेशलवाय दीना लोभाभिभूतमनसो अकुशलानि शश्वात् क्षुत्तीर्थधातुभिरिमा मुहुरर्द्यमानः शीतोष्णवातवरसैरितरेतरा च कामाग्निना चितलुषा च सुदुर्भरेण सम्पश्यतो मन उरुक्रमसीदते मे यावत् पृथक्त्वमिदमात्मनैन्द्रियार्थ मायाबलम् भगवतो जनैष पश्येत् तावन्न संसृतिरसौ प्रतिसङ्क्रमेत व्यर्थापि दुःखनिवहम् वहति क्रियार्थ अन्या प्रीतार्थकरणा निशिनिशयान नानामनोरथधिया क्षणभग्ननिद्रः दैवा हतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति त्वम् भावयोगपरिभावितहृत्सरोज आशे श्रुतेक्षितपथो ननु नाथ पुंसाम् यद्यद्धिया तौरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय नाति प्रसीदति तथोपचितोपचारै राराधितः सुरगणैर्हृदिबद्धकामैः यत् सर्वभूतदयया असदलभ्ययैको नानाजनेष्व अवहितः सुहृदन्तरात्मा पुंसामतो विविधकर्मभिरध्वराध्यैर्दानेन चोग्रतपसा व्रतचर्यया च आराधनम् भगवतस्तव सत्क्रियार्थो धर्मोऽर्पितः कर्हिचिद्ध्रियते न यत्र शश्वत्स्वरूपमः शैव निपीतभेद मोहाय बोधधिषणाय नमः परस्मै विश्वोद्भवस्थितिलये सुनिमित्तलीला रासाय ते नम इदं चक्रमेश्वराय यस्यावतार गुण कर्म विडम्बनानि नामानि येषु विगमे विवशा गृणन्ति तेनैक जन्म शमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये यो वा अहं च गीर्षश्च विभुः स्वयं च स्थित्युद्भव प्रलयहेतवयात्ममूलम् भित्त्वा त्रिपादवविध एक उरु प्ररोहस् तस्मै नमो भगवते भुवन द्रुमाय लोको विकर्म निरतः कुशले प्रमत्तः कर्मणयं त्वदुदिते भवदर्चने स्वे यस्तावदस्य बलवानिह जीविताशां सद्यश्चिनत्य निमिषाय नमोऽस्तु तस्मै यस्माद् विभेम्यहमपि द्रुपदार्थधिष्ण्यम् अध्यासितः सकललोक नमस्कृतं यत् तेपे तपो बहुशवो वरुरुत्समानस् तस्मै नमो भगवते धिमखाय तुभ्यम् तिर्यं मनुष्य विबुधादिषु जीवजोनिषु आत्मेच्छयात्मकृतसेतु परीप्सया यः रे मे निरस्तरतिरप्यवरुद्धदेहः तस्मै नमो भगवते पुरुषोत्तमाय यो विद्ययानुपहतोऽपि दशार्धवृत्त्या निद्रामुवाह जठरी कृतलोकयात्रः अन्तर्जले हि कशिपुस्पर्शानुकूलाम् भीमोर्मिमालिनिजनस्य सुखम् विविण्वन् जन्माभिपद्मभवनादहमासमिड्य लोकत्रयोपकरणो जदनुग्रहेण तस्मै नमस्तौदरस्तभवाय योग निद्रावसान विकसन्नलिने क्षणाय सोऽयम् समस्तजगताम् सुहृदेकयात्मा सत्त्वेन जन्मिडयते भगवान् भगेन तेनैव मे दृशमनुस्पृशताद्यथाहम् श्रक्ष्यामि पूर्ववदिदम् प्रणतप्रियोऽसौ एष प्रपन्नवरदो रमयात्मशक्त्या यद्यद् करिष्यति गृहीतगुणावतारः तस्मिन् स्वविक्रममिदम् सृजतोऽपि चेतो जुञ्जीत कर्म शमलम् च यथा विजह्याम् नाभिहृदादिहसतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः रूपम् विचित्रमिदमस्य विविण्वतो मे मारीरिशिष्टनिगमस्य गिराम् विसर्गः योऽसावदभ्रकरुणो भगवान् विविरुद्ध प्रेमस्मितेन नयनाम्बुरुहम् विजृम्भन् उत्थाय विश्वविजयाय च नो विषादम् माद्व्यागिरापनयतात्पुरुषः पुराणः मैत्रे उवाच स्वसम्भवम् निशाम्यैवम् तपो विद्या समाधिभिः यावन्मनोवच स्तुत्वा विरराम सखिन्नवात् अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः विषणचेतसं तेन कल्पव्यतिकराम्भसा लोकसंस्थान विज्ञान आत्मनः परिखिद्यतः तमाहागाधया वाचा कस्मलं शमयन्निव श्रीभगवानुवाच मा वेदगर्भगास्तन्द्रिम् सर्गम् उद्यममावह तन्मया पादितम् यग्रे जन्माम् प्रार्थयते भवान् भूयस्त्वम् तप आतिष्ठ विद्याम् चैव मदाश्रयाम् ताभ्याम अंतरहृदय ब्रह्मन् लोकान् लक्षस्य पावृतान् तत आत्मनि लोके च भक्तियुक्तः समाहितः द्रष्टा सीमां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनः जदा तु सर्वभूतेषु दारुष्वग्निमिवस्थितम् प्रतिचक्षीत मां लोको जह्या तर्हेव कश्मलम् जदा रहितमात्मानं भूतेन्द्रियगुणाशयैः स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति नानाकर्मवितानेन प्रजा बह्वी शिशिक्षतः नात्मावसीदत्यस्मिंस्ते वर्षी यान्मदनुग्रहः ऋषिमाद्यं न बध्नाति पापी यांस्त्वां रजोगुणः जन्मनो मयि निर्बद्धं प्रजा संसृजतोऽपि ते ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनां जन्मां त्वं मनसे यजुक्तं भूतेन्द्रियगुणात्मभिः तुभ्यं मद्विचिकित्सायाम् आत्मा मे दर्शितो वहि नालेन सलिले मूलं पुष्करस्य विचिन्वतः यच्च कर्थाङ्गमत्स्तोत्रं मत्कथाभ्युदयाङ्कितम् यद्वा तपसिते निष्ठा स एष मदनुग्रहः प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया यदस्तौ शीर्गुणमयं निर्गुणं मानुवर्णयन् य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः पूर्तेन तपसा जज्ञैर्दानैर्योगसमाधिना राधं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् अहमात्मात्मनां धातः प्रेष्ठः सन् प्रेयसामपि अतो मयि रतिं कुर्यात् देहादिर्जत्कृते प्रियः सर्ववेदमयेनेदम् आत्मनात्मात्मयोनिना प्रजः सृज यथा पूर्वं ज्याश्च मय्यनुशेरते मैत्रे उवाच तस्मा एवं जगत्स्रष्टे प्रधानपुरुषेश्वरः व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरो दधे हरे कृष्ण 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 हरे 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 राम 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 हरे हरे हरे।